ಶಿವಾನಂದಲಹರಿ 50th ಶ್ಲೋಕ. ಸಂಧ್ಯಾರಂಭ ವಿಜೃಂಭಿತಂ ಶ್ರುತಿ ಶಿರಸ್ಥಾನಾಂತರಾಧಿಷ್ಠಿತಂ ಸಪ್ರೇಮ ಭ್ರಮ ಭ್ರಮರಾಭಿರಾಮಮಸಕೃತ್ ಸದ್ವಾಸನಾಶೋಭಿತಂ ಭೋಗೀಂದ್ರಾಭರಣಂ ಸಮಸ್ತ ಸುಮನಃ ಪೂಜ್ಯಂ ಗುಣಾವಿಷ್ಕೃತಂ ಸೇವೇ ಶ್ರೀಗಿರಿಮಲ್ಲಿಕಾರ್ಜುನ ಮಹಾಲಿಂಗಂ ಶಿವಾಲಿಂಗಿತಂ ಸೇವೇ ಶ್ರೀಗಿರಿಮಲ್ಲಿಕಾರ್ಜುನ ಮಹಾಲಿಂಗಂ ಶಿವಾಲಿಂಗಿತಂ ಭೃಂಗೀಚಾನಟನೋತ್ಕಟಃ ಕರಿಮದಗ್ರಾಹೀ ಸ್ಫುರನ್ ಮಾಧವಾ ಹ್ಲಾದೋ ನಾದಯತೋ ಮಹಾಸಿತ ವಪುಃ ಪಂಚೇಷು ನಾಚಾದೃತಃ ಸತ್ಪಕ್ಷಸ್ಸು ಮನೋವನೇಷು ಸ ಪುನಃ ಸಾಕ್ಷಾನ್ಮದೀಯೇ ಮನೋ ರಾಜೀವೇ ಭ್ರಮರಾಧಿಪೋ ವಿಹರತಾಂ ಶ್ರೀಶೈಲವಾಸೀ ವಿಭುಃ ಕಾರುಣ್ಯಾಮೃತವರ್ಷಿಣಂ ಘನವಿಪದ್ಗ್ರೀಷ್ಮಚ್ಛಿದಾಕರ್ಮಠಂ ವಿದ್ಯಾಸಸ್ಯ ಫಲೋದಯಾಯ ಸುಮನಃ ಸಂಸೇವ್ಯಮಿಚ್ಛಾಕೃತಿಂ ನೃತ್ಯದ್ಭಕ್ತಮಯೂರಮದ್ರಿನಿಲಯಂ ಚಂಚಜಟಾಮಂಡಲಂ ಶಂಭೋ ವಾಂಛತಿ ನೀಲಕಂಧರ ಸದಾ ತ್ವಾಂ ಮೇ ಮನಶ್ಚಾತಕಃ ಆಕಾಶೇನ ಶಿಖೀ ಸಮಸ್ತಫಣಿನಾಂ ನೇತ್ರಕಲಾಪೀನತಾನುಗ್ರಾಹೀ ಆಕಾಶೇನ ಶಿಖೀ ಸಮಸ್ತಫಣಿನಾಂ ನೇತ್ರಕಲಾಪೀನತಾನುಗ್ರಾಹೀ ಪ್ರಣವೋಪದೇಶನಿನದೈಃ ಕೇಕೀತಿ ಯೋಗೀಯತೇ ಶ್ಯಾಮಾಂ ಶೈಲಸಮುದ್ಭವಾಂ ಘನರುಚಿಂ ದೃಷ್ಟ್ವಾ ನಟಂ ತಂ ಮುದಾ ವೇದಾಂತೋಪವನೆ ವಿಹಾರರಸಿಕಂ ತಂ ನೀಲಕಂಠಂ ಭಜೇ ಸಂಧ್ಯಾಘರ್ಮದಿನಾತ್ಯಯೋ ಹರಿಕರಾಘಾತಪ್ರಭೂತಾನಕ ಧ್ವಾನೋ ವಾರಿದಗರ್ಜಿತಂ ದಿವಿಷದಾಂ ದೃಷ್ಟಿಚ್ಚಟಾಚಂಚಲ ಭಕ್ತಾನಾಂ ಪರಿತೋಷಬಾಷ್ಪವಿತತಿಃ ವೃಷ್ಟಿರ್ಮಯೂರೀ ಶಿವಾ ಯಸ್ಮಿನ್ನುಜ್ವಲತಾಂಡವಂ ವಿಜಯತೆ ತಂ ನೀಲಕಂಠಂ ಭಜೇ ಆದ್ಯಾಯಾಮಿತ ತೇಜಸೇ ಶ್ರುತಿಪದೈಃ ವೇದ್ಯಾಯ ಸಾಧ್ಯಾಯತೇ ವಿದ್ಯಾನಂದಮಯಾತ್ಮನೇ ತ್ರಿಜಗತಃ ಸಂರಕ್ಷಣೋದ್ಯೋಗಿನೇ ಧ್ಯೇಯಾಯಖಿಲಯೋಗಿಭಿಃ ಸುರಗಣೈಃ ಗೇಯಾಯ ಮಾಯಾವಿನೇ ಸಂಯಕ್ತಾಂಡವಸಂಭ್ರಮಾಯ ಜಟಿನೇ ಸೇಯಂ ನತಿಶಂಭವೇ ನಿತ್ಯಾಯ ತ್ರಿಗುಣಾತ್ಮನೇ ಪುರಜಿತೇ ಕಾತ್ಯಾಯನೀ ಶ್ರೇಯಸೇ ಸತ್ಯಾಯಾದಿಕುಟುಂಬಿನೇ ಮುನಿಮನಃ ಪ್ರತ್ಯಕ್ಷಚಿನ್ಮೂರ್ತಯೇ ಮಾಯಾಸೃಷ್ಟಜಗತ್ರಯಾಯ ಸಕಲಾಂನಾಯಾಂತಸಂಚಾರಿಣೇ ಸಾಯಂ ತಾಂಡವಸಂಭ್ರಮಾಯ ಜಟಿನೇ ಸೇಯಂ ನತಿಶಂಭವೇ ನಿತ್ಯಂ ಸ್ವೋದರಪೋಷಣಾಯ ಸಕಲಾನುದ್ದಿಶ್ಯ ವಿತ್ತಾಶಯ ವ್ಯರ್ಥಂ ಪರ್ಯಟನಂ ಕರೋಮಿ ಭವತಃ ಸೇವಾಂ ನ ಜಾನೇ ವಿಭೋ ಮಜ್ಜನ್ಮಾಂತರಪುಣ್ಯಪಾಕಬಲತಃ ತ್ವಂ ಸರ್ವಸರ್ವಾಂತರಃ ತಿಷ್ಟಸ್ಯೇವ ಹಿತೇನ ವಾ ಪಶುಪತೇ ತೇ ರಕ್ಷಣೀಯೋಸ್ಮ್ಯಹಂ ಏಕೋ ವಾರಿಜ ಬಾಂಧವಃ ಕ್ಷಿತಿನಭೋ ವ್ಯಾಪ್ತಂ ತಮೋ ಮಂಡಲಂ ಭಿತ್ವಾನೋಚನ ಗೋಚರೋಪಿ ಭವತಿ ತ್ವಂ ಕೋಟಿ ಸೂರ್ಯಪ್ರಭಃ वेद्यः किं न भवोऽस्यहो घनतरं कीदृग्भवेन्मत्तमाः मत्तमः तत्सर्वं व्यपनीय मे पशुपते साक्षात् प्रसन्नो भवाम् हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् रोधस्थोयहृतश्रमेण पथिकः छायान्तरो दृष्टितः भीतस्वस्थगृहं गृहस्थमतिधिः दीनं प्रभुं धार्मिकं दीपं सन्तमसा कुलश्च शिखिनं शीतावृतस्त्वं तथा चेतस्सर्वभयापहं व्रजसुखं व्रजसुखं शम्भोः पदाम्भोरुहम् अङ्कोलं निजबीजसन्ततिः अयस्कान्तोपलं सूचिका साध्वीनैजविभुं लताक्षितिरुहं सिन्धुस्सरिद्वल्लभं प्राप्नोतीह यथा तथा पशुपते पादारविन्दद्वयम् चेतो वृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्चादनं वाचा शङ्खमुखैस्थितैश्च जठरापूर्तिं चरित्रामृतैः रुद्राक्षैर्भसितेन देववपुषो रक्षां भवद्भावना पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति मार्गावर्तितपादुका पशुपतेः अङ्गस्य कूर्चायते गण्डूशाम्बुनिषेचनं पुररिपुः दिव्याभिषेकायते किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनं भूभृत्पर्यटनं नमत्सुरशिरः कोटीरसङ्घर्षणम् कर्मेदं मृदुलस्य तावक पदद्वन्द्वस्य गौरीपते मच्चेतो मणिपादुका विहरणं शम्भो सदाङ्गीकुरु वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिका नीराजनं कुर्वते दृष्ट्वा मुक्तिवधूस्तनोति निभृता श्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येव किं दुर्लभम् क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया बहुविधपरितोषबाष्पूरस्फुटपुलकाङ्कितचारुभोगभूमिं चिरपदफलकाङ्क्षि सेव्यमानां परमसदाशिवभावनां प्रपद्ये अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोष्ठमावसन्तीं सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकां जडता पशुता कलंकिता कुटिलचरत्वं च नास्ति मयि देव अस्ति यदि राजमौले कुटिलचरत्वं च नास्ति मयि देव अस्ति यदि राजमौले भवदाभरणस्य नास्ति किं पात्रम् अरहसि रहसि स्वतन्त्रबुद्ध्या वरिवसितुं सुलभप्रसन्नमूर्तिः अगणितफलदायकप्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति आरूढभक्तिगुणकुञ्चितभावचापयुक्तैः शिवस्मरणबाणगणैरमोघैः निर्जित्य किल्बिषरिपून् विजयी सुधीन्द्र सानन्दमावहति सुस्थिरराज्यलक्ष्मीम् ध्यानाञ्जनेन समवेक्ष्य तमः प्रदेशं भित्त्वा बलिभिरीश्वरनाममन्त्रैः दिव्याश्रितं भुजगभूषणमुद्वहन्ति ये पादपद्ममिह ते शिव ते कृतार्थाः भूदारतामुदवहद्यदपेक्षया श्रीभूदार एव किमतः सुमते लभस्व केदारमाकलितमुक्तिमहौषधीनां पादारविन्दभजनं परमेश्वरस्य आशापाशक्लेशदुर्वासनादि खेदोद्युक्तैर्दिव्यगन्धैरमन्दैः आशाशाटीकस्य पादारविन्दं चेतः पेटीं वासितां मे तनोतु कल्याणिनं सरसचित्रगतिं सवेगं सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यं चेतस्तुरङ्गमधिरुह्य चरस्मरारे नेतः समस्तजगतां वृषभाधिरूढा भक्तिर्महेशपदपुष्करमावसन्ति कादम्बिनीव कुरुते परितोषवर्षम् सम्पूरितो भवति यस्य मनस्तटाकः तज्जन्म सस्यमखिलं सफलं च नान्यत् बुद्धिस्थिरा भवितुमीश्वरपादपद्मा सक्तावधूर्विहरिणीव सदा स्मरन्ति सद्भावनास्मरणदर्शनकीर्तनादि सम्मोहितेव शिवमन्त्रजपेन विन्ते सदुपचारविधिष्वनुबोधितां सविनयां सुहृदं समुपाश्रितां मम समुद्धरबुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव नित्यं योगिमनःसरोजदळ सञ्चारक्षमस्त्वत्क्रमः शम्भो तेन कथं कठोर यमराड्वक्षः कवाटक्षतिः अत्यन्तं मृदुलं त्वदं घ्रियुगलं हा मे मनश्चिन्तयत्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये येष्यत्येष जनिं मनोस्य कठिनं तस्मिन्नटानीतिमत्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः कञ्चिध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः कञ्चित् कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं मीदृशीं यः प्राप्नोति मुदात्तदर्पितमना जीवन् समुक्तः खलु बाणत्वं वृषभत्वमर्दवपुषा भार्यात्वमार्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादिरूपं दधौ त्वत्पादे नयनार्पणं च कृतवान् त्वद्देहभागो हरिः पूज्यात् पूज्यतरः स एव हि न चेत् को वा तदन्योऽधिकः जननमृतियुतानां सेवया देवतानां न भवति सुखलेशसंशयो नास्ति तत्र अजनिममृतरूपं साम्बमीशं भजन्ते य इह परमसौख्यं ते हि धन्या लभन्ते शिव तव परिचर्यासन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेहे सर्वदा संवसत्वं जलधिमथनदक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धप्रवीणः अशनकुसुमभूषो वस्त्रमुख्यां सपर्यां कथय कथमहंते कल्पयानीन्दुमौले पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभं जाने मस्तकमङ्घ्रिपल्लवमुमा जाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा हसनं गरळं फणीकलापो वसनं चर्म च वाहनं महोक्षः मम दास्यसि किं किमस्ति शम्भो तव पादाम्बुजभक्तिमेव देहि यदा कृताम्भो निधिसेतुबन्धनः करस्थलादः कृतपर्वताधिपः भवानि ते लङ्घितपद्मसम्भवः तदा शिवार्चास्तव भावनक्षमः नतिभिर्नुतिभिस्त्वमीश पूजा विधिभिर्ध्यानसमाधिभिर्न तुष्टः धनुषा मुसलेन चाश्मभिर्वा वदते प्रीतिकरं तथा करोमि वचसा चरितं वदामि शम्भोः अहमुद्योगविधासु ते प्रसक्तः मनसा कृतिमीश्वरीस्य सेमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि आद्या विद्या हृद्गता निर्गतासीत् विद्या हृद्या हृद्गता त्वत्प्रसादात् सेवे नित्यं श्रीकरं त्वत्पदाब्जं भावे मुक्तेर्भाजनं राजमौले दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि सारं त्वदीयचरितं नितरां पिबन्तं गौरीशमामिह समुद्धरसत्कटाक्षैः सोमकलाधरमौलौ कोमलघनकन्धरे महामहसि स्वामिनि गिरिजानाधे मामकहृदयं निरन्तरं रमताम् सारसनेते नयने तावेव करौ स एव कृतकृत्यः या येयौ यो भर्गं वदति क्षेते सजा सदार्चत स्मरति अतिमृदुलौ मम चरणौ अतिकठिनं ते मनो भवानीश इति विचिकित्सां सन्त्यज शिवकथमासीद्गिरौ तथा प्रवेशः धैर्यांकुशेन निभृतं रभसा धैर्यांकुशेन निभृतं रभसा दाकृष्य भक्तिशृङ्खलया पुरहरचरणालाने हृदयमदेभं बदानचिद्यन्त्रैः प्रचरत्यभितः प्रगल्भवृत्या मदवानेश मनःकरी गरीयान् పరిగృహ్య నయేన భక్తిరజ్వా పరమస్థానుపదం దృఢన్నయామం సర్వాలంకారయుక్తాం సరళపదయుతాం సాధువృత్తాం సువర్ణాం సద్భిః సంస్తూయమానాం సరసగుణయుతాం లక్షితాం లక్షణాఢ్యాం ఉద్యద్భూషా విశేషాముపగత వినయాం ద్యోతమానార్ధరేఖాం కళ్యాణీం దేవ గౌరీ ప్రియ మమ గౌరీ ప్రియ మమ కవితా కన్యకాం త్వం గృహాణాం ఇదం తే యుక్తం వా పరమశివ కారుణ్య జలధే గతౌ తిర్యగ్రూపం తవ పదశిరో దర్శన ధియా హరిబ్రహ్మాణౌతౌ దివి భువి చరం తే శ్రమయుతౌ కథం శంభో స్వామిన్ కథయ మమ వేద్యోసి పురతః స్తోత్రేణాలమహం ప్రవచ్మిన మృషా దేవావిరించాదయః స్తుత్యానాం గణనా ప్రసంగసమయే త్వామగ్రగణ్యం విదుః మాహాత్మ్యాగ్రవిచారణ ప్రకరణే ధానాతు శస్తోమవ ధూతాస్త్వాం విదురుత్తమోత్తమఫలం ధూతాస్త్వాం విదురుత్తమోత్తమఫలం శంభో భవత్సేవకాః శ్రీమదాదిశంకరాచార్య విరచిత శివానందలహరీ సమాప్తం.